चतुर्थोऽध्यायः ज्ञाननिष्ठा वैभव उद्घोषः। अष्टावक्र उवाच। हन्तात्मज्ञस्य धीरस्य खेलतो भोगलीलया, न हि संसारबाहीकैः मूढैः सह समानता। यत्पदम् प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः, अहो तत्र स्थितो योगी न हर्षमुपगच्छति। तज्ञस्य पुण्यपापाभ्याम् स्पर्शो ह्यन्तर्न जायते, न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः। आत्मैवेदम् जगत्सर्वम् ज्ञातम् येन महात्मना, यदृच्छया वर्तमानम् तम् निषेद्धुम् क्षमेतकः। आब्रह्मस्तम्भपर्यन्ते भूतग्रामे चतुर्विधे, विज्ञस्यैव हि सामर्थ्यम् इच्छानिच्छाविवर्जने। आत्मानम् अद्वयम् कश्चित् जानाति जगदीश्वरम्, यद्वेत्ति तत्सकुरुते न भयम् तस्य कुत्रचित्। ओ